एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। राष्ट्रपतिना रामचन्द्र पौडेलेन संघीय संसदः द्वयोः सदनयोः अधिवेशनम् आहूतमस्ति। राष्ट्रपतिना पौडेलेन नेपालस्य संविधानस्य त्रिनवतितम धारायाः प्रथमोपधारायाः अनुसारेण मन्त्रिपरिषदः परामर्शेन अशैव चैत्र मासस्य एकोनविंश दिवसे बृहस्पतिवासरे द्विवादनाय अधिवेशनम् आहूतमस्तीति राष्ट्रपतेः कार्यालयस्य प्रवक्ता रितेश कुमार शाक्य असूचयत्। तत्पूर्वं ह्य उपवेशेन मन्त्रिपरिषदः उपवेशेन अधिवेशनस्य आह्वानाय राष्ट्रपतेः समक्षं परामृष्टुम् निर्णीतम् आसीत्। सर्वकारेण संविधान संशोधनाय विमर्शनपत्रस्य निर्माणाय प्रधानमन्त्रिणः राजनीतिक परामर्शदातुः असीम शाह इत्यस्य अध्यक्षतायां राजनीतिक दलानां प्रतिनिधित्वेन सहितं कार्यदलं संघटयितुं निर्णीतमस्ति। राष्ट्रिय स्वतन्त्र दलस्य प्रतिबद्धता पत्रस्य अनुसारेण मन्त्रिपरिषदः उपवेशेन कार्यदल संघटनस्य निर्णयो विहितोऽस्तीति सर्वकारस्य प्रवक्ता शिक्षा विज्ञान प्रविधि मन्त्री सस्मित पोखरेलः असूचयत्। पत्रकाराणां जिज्ञासायां प्रवक्ता पोखरेलः भाद्रमासस्य त्रयोविंश चतुर्विंशयोः दिवसयोः सम्भूतायाः घटनायाः प्रतिवेदनस्य क्रियान्वयनं विधिसम्मतरूपेण सम्भूतमस्तीति अज्ञापयत्। मन्त्री पोखरेलः भाद्रमासस्य चतुर्विंश दिवसस्य घटनायां संलग्नः अधिकः जनः निगृहीतः सन्तीति चर्चयन् त्रयोविंशे दिवसे सम्भूतायाः घटनायाः दोषिणः केऽपि न निगृहीताः सन्तीत्यतः सर्वकारेण आयोगस्य प्रतिवेदनं क्रियान्वितमस्तीति अज्ञापयत्। मन्त्री पोखरेलः चतुर्विंश दिवसस्य घटनाम् अनुसन्धातुं पृथक् समितेः निर्माणस्य विषये विधिगतं परामर्शनं जायमानमस्तीति अज्ञापयत्। एवमेव सर्वकारेण सेतु पाठ्यक्रमस्य निरसनाय सम्प्रेषितायाः सूचनायाः विषये तत्कालं एकादश कक्ष्यां यावत् अभिलक्ष्य संचालितं सेतु पाठ्यक्रमं निरसयितुं निर्णीतमस्तीति मन्त्री पोखरेलः असूचयत्। प्रधानमन्त्रिणा बालेन्द्र शाहेन संघीय सांसदैस्सह चरणबद्ध रूपेण विमर्शनं प्रारब्धमस्ति। प्रधानमन्त्री शाह ह्य सिंहप्रासादे कोशी कर्णाली प्रदेशाभ्यां प्रतिनिधित्वं कुर्वद्भिः राजनीतिक दलानां सांसदैस्सह विमृष्टवान्। प्रधानमन्त्री शाह सम्बद्ध क्षेत्राणां समस्यानां तत्कालं सम्पादनीयानां कार्याणां च विषयेष् सांसदैस्सह विमृष्टवान् इति रासोपा दलस्य सांसदः अशोक कुमार चौधरी अज्ञापयत्। तदवसरे प्रत्येकं सांसदेन क्षेत्रगत रूपेण स्वकीया समस्या स्थापिता आसीदिति असूचयत्। मुगलिन नागढुंगा मार्गखण्ड अद्यतन दिवसात् दिनत्रयं यावत् रात्र्यां पिधीयमानो वर्तते। चितवन जनपदस्य इच्छा कामना ग्रामपालिकायाः चतुर्थ वडा क्षेत्रस्य गुप्तेभीर प्रभृतिषु स्थानेषु मार्गस्य स्तरोन्नते अद्यतन दिवसाय परश्वः चैत्र मासस्य एकोनविंशं दिवसं यावत् रात्रौ दशवादनात् प्रातः चतुर्वादनं यावत् मार्गः पिहितो भविष्यति इति मुगलिनवर्तिना स्थानीय प्रहरी कार्यालयेन ज्ञापितम् वर्तते। भूयो भूयः यातायातावरोधेन यात्रायां काठिन्यं भवतीत्यतः मार्गायोजनया अत्यावश्यकानि यातायातसाधनानि विहाय सर्वाणि यातायातसाधनानि अवरोद्धुं निर्णीतमस्ति। सर्वोच्च न्यायालयेन पूर्व प्रधानमन्त्रिणः केपी शर्मा ओलिनः पूर्व गृहमन्त्रिणः रमेश लेखकस्य च प्रहरिणः निग्रहणात् उन्मुक्तेः याचनायाः पृथक् पृथक् बन्दी प्रत्यक्षीकरण निवेदने कारण प्रदर्शनादेशः प्रदत्तोऽस्ति। पूर्व प्रधानमन्त्रिणः पत्न्या राधिका शाक्य इत्यनया पञ्जीकारितस्य आदेशाभियाचन निवेदनस्य श्रवणं विदधानेन मेघराज पोखरेलस्य न्यायपीठेन कारणादेशः प्रदत्तोऽस्तीति सर्वोच्च न्यायालयेन ज्ञापितम् वर्तते। तथैव सर्वोच्च न्यायालयेन नेपाली कांग्रेस दलस्य नेतुः पूर्व गृहमन्त्रिणः रमेश लेखकस्य निग्रहणात् उन्मुक्तेः याचनया तदीय पत्न्या यशोदया पञ्जीकारिते बन्दी प्रत्यक्षीकरणस्य निवेदने निग्रहणस्य आधारेण कारणेन च सहितं लिखितम् उत्तरं प्रदातुम् आदिष्टमस्ति। न्यायाधीशस्य कुमार रेग्मिणः न्यायपीठेन एवम् आदिष्टम् वर्तते। गृहमन्त्री सुदन गुरूङ कथयति प्रहरिणा स्वस्य भूमिकायाः निर्वहणस्य कार्ये केनापि प्रकारेण हस्तक्षेपो न भवति। गृहमन्त्रिणा गुरूङ इत्यनेन ह्य प्रहरी प्रधान कार्यालयस्य निरीक्षणस्य पश्चात् आयोजिते कार्यक्रमे सीमित स्रोत साधनानां विद्यमानतायाः अवस्थायामपि नेपाल प्रहरिणा प्राप्तं दायित्वम् उत्कृष्टरूपेण निर्व्यूढमस्तीत्यालक्ष्य प्रहरिणे धन्यवादाश्च व्यक्तो वर्तते। तदवसरे गृहमन्त्री गुरूङ विपदः व्यवस्थापनाय नेपाल प्रहरिणा अग्रपंक्तौ स्थित्वा भूमिका निर्वोढव्या भवतीत्यतः प्रहरिणः अतिरिक्त स्रोत साधनयुत सम्पादनेन सह समयानुकूल प्रशिक्षणानां व्यवस्था च विधास्यते इति अगदत्। कार्यक्रमे गृह सचिवः राजकुमार श्रेष्ठः प्रहरी महानिरीक्षकः दानबहादुर कार्की च विचारं व्यक्तवन्तौ। संचार सूचना प्रविधि मन्त्री डाक्टर विक्रम तिमिल्सिना परिवहन सेवायाः अथ च पत्राचार सेवायाः सुदृढीकरणस्य आवश्यकतां प्रतिपादयति। पत्राचार सेवा विभागस्य बबरमहलवर्तिनी कार्यालये पूर्वेद्युः आयोजिते कार्यक्रमे पुरातात्विकस्य ऐतिहासिकस्य च पत्राचार चिठिका पत्रस्य सार्वजनिकीकरणं विदधानो मन्त्री डाक्टर तिमिल्सिना पत्राचार सेवायाः अतिरिक्त सुदृढीकरणे बलं दत्तवान्। कार्यक्रमे विभागेन जावादाम नामाख्यायाः मुद्रायाः गुल्मी जनपदस्य धुरकोट प्रासादस्य कार्तिक नृत्याख्येन प्रसिद्धस्य नृसिंहावतार नृत्यस्य च चित्राणां पत्राचार चीटिकाः प्रचलने आनीताः वर्तन्ते। राष्ट्रपतिना रामचन्द्र पौडेलेन सह प्रधान न्यायाधीशेन प्रकाशमान सिंह राउत इत्यनेन ह्य मेलवार्ता विहितास्ति। शीतल निवासवर्तिनी राष्ट्रपति भवने राष्ट्रपतिना पौडेलेन सह प्रधान न्यायाधीशस्य पदावधे समाप्तोन्मुखावस्थायां प्रधान न्यायाधीशेन राउत इत्यनेन मेलवार्ता विहिता अस्ति। प्रधान न्यायाधीशस्य राउत इत्यस्य पदावधिः श्व समाप्स्यति। बर्ड फ्लू रोगस्य संक्रमणस्य दर्शनानन्तरं बांके जनपदस्य नेपालगंज सीमा प्रवेश बिन्दौ सावधानता अवलम्बिता वर्तते। सावधानतायाः अवलम्बनस्य क्रमे जनपदेन सह सम्पृक्तात् सीमा प्रवेश बिन्दुतः अवैधानिक रूपेण प्रायः प्रतिदिनं आनीयमानाः कुक्कुटाः मारिताः सन्तीति बांके जनपदस्य पशु सम्बद्ध सुरक्षणावास कार्यालयस्य प्रमुखः डाक्टर हरेराम यादवः असूचयत्। इति समाचारः।